आदूना इन्द्रवृत्रहन्नस्माकमर्धमागहि महान्महीभिरूतिभिः भ्रमिश्चिद्भासिदूतो जलाचित्रचित्रिणीष्वा चित्रम् क्रीणाश्रूतयेः दभ्रेभिश्चिच्छीयाम् संहंसि व्राधम् तमोजसा सखीभिर्ये त्वे सजाः भयमिन्द्रत्वे सजाः भयम् त्वाभिनो नमः अस्मा सरश्चित्राभिरद्रिवो न भज्याभिरूतिभिः अनाः दृष्टाभिरागहि भूयामोषुत्वाव तस्सखाः जयिन्द्रकोपादः युजो वाजाजकृष्वाजे त्वम् ह्येकयीशीषयिन्द्रवाजस्य गोपादः स नो यन्धि महीविषम् वरन्ते अन्यथा यद्दित्सासि स्तुतो मघम् गुरुभ्य इन्द्रगिर्वणः अभित्वागोतमा गिरानोषत प्रदापने इन्द्रवाजाय भीष्माये हृदे वोचामवीरा आयामन्दसान आरुजः पुरोदासीरभीत्य ते गृणन्ति वेधसो जानी चकर्थपुंस्या सुदेष्विन्द्रगर्वणः अयीवृथम् तगोत मायिन्द्रत्वे स्तोमवाहसः अयिषूधा वीरवद्यसाः यच्छिद्दिशस्व तामसीन्द्रसाधारणस्त्वम् वयम् भवामहे अर्वाचीनो वसोभवास्मे सुमत्स्वान्धतः सोमानामिन्द्रसोमपाः अस्माकम् तामतीनामा सोम इन्द्रयच्छतु अर्वागावत्तया हरी पुरोलासम् च नोघसो जोषयाः से गिरश्च नः मधूयुवि वयोषणाम् सहस्रम् यदीनाम् युक्तानामिन्द्रामीमहे शतम् सोमस्य कार्याः सहस्रा ते सदा वयङ्गपामाच्या वयामसि अस्मत्राराधयेतु ते दशते कलशानाम् हिरण्यानामधीमहि भूरिदासि वृत्रहन् भूरिदा भूरि देहि नो मादभ्रम् भूर्याभर भूरिहेदिन्द्रजित्ससि भूरिदाह्यसि श्रुतः पूरुत्रासूरवृत्रहन् आनो भयस्वराधसि पते भद्भ्यो वेदक्षणसंसामि घोषणो न पात् माभ्याङ्गा अनुसि श्रुतः अनीनकेव विद्रदेन वे द्रुपदे अद्भरे बभ्रूयामेषु शोभेते अहम् मभुस्रजाम्ये रमनुस्रजाम्ये बभ्रूयामेष्वसृधा